रुद्र, यह शिव भक्तों का सर्वप्रथम मंत्र माना गया है। शिव संप्रदाय के इस रुद्र पाठ को वैष्णव पंथ के लोगों ने भी अपनाया है। कर्म मार्ग तथा ज्ञान मार्ग दोनों ही में यह मंत्र उपयुक्त है। रुद्र के दो भाग हैं। प्रथम भाग का नाम है चमक और दूसरे भाग का नाम है नमक। चमक में शंकर भगवान की स्तुति है और नमक में भक्तों ने अपनी इच्छाएं व्यक्त की है। कैलासाधिपति की प्रलयंकारी शक्ति का अनुभव लेते हैं इसी प्रभावशाली मंत्र के माध्यम से।
ओम बृहस्पति विश्वे देवा सूक्तवाजा पृथिवी मातर मिगसी मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमनि देवेभ्यो वाचमद्या सकशुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु। ॐ शान्ति शान्ति शान्तिः। ॐ नमस्ते रुद्रमन्यव उतो तैषभे नमः। नमस्ते अस्तु धन्वने बाहुभ्यामुदते नमः। या तैषु शिवतमा शिवं बभूवते धनुः शिवा शरव्या या तवतया नो रुद्रमृडया। या ते रुद्रशिवा तनूरघोरापापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिधाशिः। या मिथुं गिरिशन्तहस्ते बिभर्षस्तवे शिवाङ्गिरित्रदां कुरु मायिगोऽसि पुरुषं जगत। शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमित्यगतयक्ष्मगतुमना असत। अर्ध्यवोचदधि वक्ता प्रथमो दैव्योऽभिषव अहीग्रश्च सर्वान् जम्भयन् सर्वाश्च यातु धान्यः। असव्यताम्रो अरुण उत भगृः सुमङ्गलः। ये ते मा गरुदा अभितो दिक्षश्रिताः सहस्रशो वैशाखेण ईमहे। असव्यो वसरपतिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नदहार्यः। उतैनम् विश्वा भूतानि सदृष्टो मृळयादिनः। नमो अस्तु नीलग्रीवाय सहस्राक्षाय भीरुषे अघो ये अस्य सद्वानो हन्तेभ्यो करन् नमः। प्रमुञ्च धन्वनस्त्वमुभयोरात्मीयोर्जाम् याश्च देहस्तयुषव पराता भगवो वप अवतद्यधनुस्त्वकसहस्राक्षशतेषु हे निशीर्यशल्यानाम् मुखा शिवो नस्तु मना भव विद्यन्दनोक्कपरदिनो विशल्यो बाणवाङ्गभुता। अनेशन्नस्येषव आभुरस्य निषङ्गतिः। या ते हेतिर्मीडुष्टमास्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा। नमस्ते अस्त्वायुधाय नाथदाय धृष्णवे उभाभ्यामुतते नमो बाहुभ्यान्तवदन्वने। परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः। अथो यरिषुधिस्तवारे अस्मन्विधेहिताम् नमो हिरण्यवाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्पिञ्जराय त्रिश्रीमते पथीनाम् पतये नमो नमो बब्धुषाय विव्याधिनेन्नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथा विने क्षेत्राणां पतये नमो नमः सूतायाहन्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणियाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृताय औषधीनां पतये नमो नम उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो नमः कृष्णगीताय धावते सत्त्वनां पतये नमः नमः स्वहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः प्रकुभाय निषङ्गिणे सेनानां पतये नमो नमो निषङ्गिणशिशुभिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूना पतये नमो नमो निखेलवे परिचरायारण्यानां पतये नमो नमः सृकाभिभ्यो जिहाग्नोसद्भ्यो मुष्णतां पतये नमो नमो सिमद्भ्यो नक्तञ्चरद्भ्यः प्रकृन्दानां पतये नमो नम उष्णीषिणे गिरिचराय पुलुञ्जानां पतये नमो नम इषुमद्भ्यो धन्वाभिभ्यश्च वो नमो नम आदन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृज ो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीने व्यश्चयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः स्वभाभ्यस्वभावदिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपदिभ्यश्च वो नमः नम आव्याधिभ्यो विविध्यन्तीभ्यश्च वो नमो नम उगणाभ्यस्तृगहतीभ्यश्च वो नमो नमो कृत्सेभ्यो कृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः कुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारे भ्यश्च वो नमो नमः कुलारेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नमः ऋतुभ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनेभ्यश्च वो नमो नमश्वभ्यश्वपदेभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपालदिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो विदिशाय च जिपिविष्टाय च नमो भीरुष्टमाय केशुमते च नमो ह्रस्वाय च वामनाय च नमो कृहते च वर्षीयसे च नमो वृद्धाय च समृद्ध्वने च नमो अग्र्याय च प्रथमाय च नम आशवे चाजिराय च नम श्रीभ्रियाय च श्रीभ्याय च नम ऊर्म्याय चावस्वन्याय च नम स्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जगन्याय च बुद्धियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम गुरुवर्याय च कल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नम शूराय चावभिन्दते च नमो वर्णिने च वरुणिने च नमो बिल्मिने च कवचिने च नम श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च अनन्याय च नमो जृष्णवे च प्रमृताय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे च सुधिमते च नमस्ति क्षेत्रवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः स्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्षाय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नम इन्द्रियाय च तप्याय च नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमः साम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतः य च नमस्तीर्घ्याय च पूर्याय च नमः पार्याय च वार्याय च नमः प्रसरणाय चोत्तरणाय च नमः आधार्याय च लाद्याय च नमः षष्ट्याय च भेन्याय च नमः श्रिपद्याय च प्रवाह्याय च नम इरिण्याय च प्रपद्याय च नमः किवहिलाय च क्षयणाय च नमः कपरदिने च पुलस्तये च नमो ओष्ठ्याय च विह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो रथय्याय च निवेष्ट्याय च नमः पागसव्याय च रजस्याय च नमः शुष्याय च हरित्याय च नमो ोप्याय चो नप्याय च नमः पूर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पपुरमाणाय च विघ्नते च नमः आखिलते च प्रखिलते च नमो वक्रिदेवेभ्यो देवानाभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीवत्केभ्यः द्रापे अन्तस्पदे दरिद्रन्नीलोहिता एषाम् पुरुषाणामेषाम् पशूनाम् माभेर्मा रोमो येषाम् किञ्च नाममतो या ते रुद्रशिवातनो शिवा विश्वाभेषजी शिवा रुद्रस्य भेषजीतया नो मृडजीवते इमा गरुद्राय तमसे कपर्दिने क्षयद्वीराय प्रवरामहे मतिम् यथा नश्यमसद्विपदे च दुष्पदे विश्वम् पुष्टङ्गामे अस्मिन्ननातुराम् मृडानो रुद्रोतनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्छञ्चयोश्च मनुराय के पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मानवुक्षन्तमुतमानवुक्षिताम् मानो वली पितरम् मोतमातरम् प्रिया मानस्तनुवो रुद्ररीरिषः मानस्लोकेतनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितो वधीरविष्मन्तो नमसा विधेमते आराध्ये गोम्न उतपूर्णे क्षयद्वीराय तुम् नमस्मेते अस्तु रक्षाजनो अधिजदेव ब्रूयराजनशरम यच्छद्विवर्हाः स्तुहि श्रुतम् गरतसदयुवानम् मृगन्न भीममुपात्ममुग्राम् मृडाय रुद्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव बन्धु सेनाः परिणो रुद्रस्य हेतिरवृणक्तु परिद्वेषस्य दुर्मतिरघायोः अवस्थिरामरभ्यस्तरनुष्वीर्वस्थोकायतनयाय मृडया नीदुष्टमशिवतमशिवो नः सुमना भव परमे वृक्षायुधन्निधाय वृत्तिम् वधानाचर विना बिभ्रदाभिः विकीर्तविदोहित नमस्ते अस्तु भगवः यास्ते सहस्रमाहेतयोऽन्यमस्मन्निव पन्दुलाः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनाम् भागृहि सहस्राणि सहस्रशो ये रुद्राहि भूम्याम् सहस्रयोजने वधन्वानि तन्मसि अस्मिन्महत्यर्णवेऽन्तरिक्षे भवाधि नीलग्रीवाश्चितिकण्ठाश्च सर्वाधः समाचराः नीलग्रीवाश्चितिकण्ठादिवो रुद्रा उपश्रिताः ये वृक्षेषु सस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासः कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विवधो जनान् ये पथाम् पथिरक्षय ऐलभृदाय व्युधः ये तीर्थानि प्रचरन्ति श्रुतावन्तो निषङ्गिणः य एतावन्तश्च भूयागोषश्च दिशो रुद्राविदस्थिरे तेषागोसहस्रयोजने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्यायेऽन्तरिक्षे ये दिव्ये कामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु देयम् विष्णो यश्च नो वेष्टितम् भोजम् मे ददामि ॐ अधुना विष्णु सजोषसे मा वर्धन्तु वाम् विरः युग्मैर्वाजे विरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुमश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुष्ठ मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे चक्षश्च मे बलम् च ममोजश्च मे सहश्च मायुश्च मे जरा च आत्मा च मे तनु ष्ट मे चर्म च मे वर्म च मे वाणि च मे स्थानि च मे परोवाणि च मे शरीराणि च मे यैष्ठ्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मे मष्टमेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे त्राहुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे विशिष्ट मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुखम् च मे सुपथम् च मरुद्धम् च मरुद्धिष्ट मे तृप्तम् च मे तृप्तिष्ट मे मतिष्ट मे सुमतिष्ट मे षञ्चमेमयष्टमे प्रियञ्चमेऽनुकामष्टमे कामष्टमे सौमनसष्टमे भद्रञ्चमे श्रेयष्टमे वस्यष्टमे यशष्टमे त्वगष्टमे द्रविणञ्चमे यन्ता च मे धर्ता च मे क्षेमष्टमे धृतिष्टमे विश्वञ्चमे महष्टमे संविच्चमे ज्ञातञ्चमे सोष्टमे प्रसोष्टमे शीलञ्चमे ष्टमहृतम् च मे मृतम् च मे यक्ष्मम् च मे नामयश्च मे जीवाविष्ट मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सुषा च मे सुनम् च मे ओ ऊर्ज मे सूनता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सकृच्च मे सभीदिष्ट मे कृष्ट मे वृष्टिश्च मे दरिद्रम् च महोद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभुच मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे कृतिश्च मे पूयवाश्च मे नम् च मे पृच्च मे ह्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे बोधूमाश्च मे मसुराश्च मे प्रियङ्गमश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे सिंहम् च मे द्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च मावश्च मे वीरुधश्च मौषधयश्च मे कृष्णपच्यम् च मे कृष्णपच्यम् च मे ग्राम्याश्च मे पशवारण्याश्च यज्ञेन कल्पन्ता वित्तम् च मे वित्तिश्च मे भूतम् च मे भूरिश्च मे वसु च मे वसतिश्च मे परम च मे शक्तिश्च मे रथश्च मये वैश्रमैतिश्च मे गतिश्च मे अग्निश्च महीन्द्रश्च मे सोमश्च महीन्द्रश्च मे सविता च महीन्द्रश्च मे सरस्वती च महीन्द्रश्च मे पूषा च महीन्द्रश्च मे बृहस्पतिश्च महीन्द्रश्च मे मित्रश्च महीन्द्रश्च मे वरुणश्च महीन्द्रश्च मे त्वष्टा च महीन्द्रश्च मे धाता च महीन्द्रश्च मे विष्णुश्च महीन्द्रश्च मे श्रृणौ च महीन्द्रश्च मे मरुतश्च महीन्द्रश्च मे विश्व मे देवा इन्द्रश्च मे पृथिवी च महीन्द्रश्च मेन्दरिक्षम् च महीन्द्रश्च मे द्यौश्च महीन्द्रश्च मे दिशश्च महीन्द्रश्च मे मूर्धा च महीन्द्रश्च मे प्रजापतिश्च महीन्द्रश्च मे अगनुष्ट मे रश्मिश्च मे दाभ्यश्च मेधिपतिश्च उपागनुष्ट मेन्दर्यामश्च मैन्द्रवायवश्च मे मैत्रावरुणश्च आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्दीच महाग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मे त्रिग्राह्या ष्ट मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च महादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हारियोजनश्च मे युजमश्च मे परिजिष्ट मे वेदिष्ट मे जिष्ठिराश्च मे सुरश्च मे चमसाश्च मे गावाणश्च मे स्वरवश्चम उपरवाश्च मे दिशवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृश्च माधवनीयश्च माग्निर्ध्रम् च मे हविर्धारम् च मे गृहाश्च मे सदश्च मे पुरोडाशाष्टमे पञ्चताष्टमेव भृतष्टमे स्वराकारष्टमे अग्निष्ट मे घर्मश्च मे रतश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे धिष्ठ मे धिष्ठ मे द्यौश्च मे शक्वरीरङ्गुलयोतिषश्च मे यज्ञेन कल्पन्तामृत्य मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तमश्च मधुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रतन्त्रे च मे यज्ञेन कल्पेताम् गर्भाष्टमे वत्साष्टमे त्र्यविष्टमे त्र्यवीचमे नित्यवाष्टमे नित्यवीचमे पञ्चाविष्टमे पञ्चावीचमे त्रिवत्सष्टमे त्रिवत्साष्टमे तुर्यवाष्टमे तुर्यवीचमे पष्ठवाष्टमे पष्ठवीचम उक्षाचमे वशाचम ऋषभष्टमे वेहष्टमे नडवाञ्चमे धेनुष्टमायुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताभ्यश्रोत्रं यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतायज्ञो यज्ञेन कल्पता एकाचमे तिस्रष्टमे पञ्चचमे सप्तचमे नवचमये एकादशचमे त्रयोदशचमे पञ्चदशचमे सप्तदशचमे नवदशचमये एकविंशतिष्टमे त्रयोविंशतिष्टमे पञ्चविंशतिष्टमे सप्तविंशतिष्टमे नवविंशतिष्टमये एकत्रिंशच्चमे त्रयस्त्रिंशच्चमे चतस्रश्चमेऽष्टौचमे द्वादशतमे षोडशतमे विगशतिष्ठमे चतुर्विगशतिष्ठमे अष्टाविगशतिष्ठमे द्वात्रिवशच्चमे षट्त्रिवशच्चमे चत्वारिवशच्चमे चतुश्चत्वारिवशच्चमे अष्टाचत्वारिवशच्चमे वाजश्च प्रसवश्चापिचश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियष्टाञ्जायनश्च ष्ट भुवनश्च भुवनश्चाधिपतिष्ठा ॐ इळारे बहोर्मनुर्यज्ञनीर्बृहस्पतिरुक्ता मदानि सगषिषद्विश्वे देवा सोक्तवाच पृथिवीमातरमामायिगति मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवनिष्यामि मधुमदीन् देवेभ्यो वाचमुद्या सगषुश्रूषेण्याहम् मनु ेभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुवदन्तु ॐ शान्तिः शान्तिः शान्तिः